एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभायाः प्रदेश सभानाम् च निर्वाचनस्य आसन्नतायाः उपक्रमे आराष्ट्रम् नैर्वाचनिक प्रचार प्रसारौ तीव्रम् जायमानौ स्तः विभिन्नानाम् दलानाम् शीर्ष नेतारः नैर्वाचनिक प्रचार प्रसारयोः अभियानस्य क्रमे देशाटने सक्रियाः सन्ति एवमेव प्रत्याशिनः स्वेषाम् कार्यक्रमान् प्रतिबद्धताम् च पुरस्कृत्य जनतायाः गृहद्वाराणि प्राप्ताः सन्ति नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड वदति संविधानस्य रक्षायै वर्तमान वाम लोकतान्त्रिक गठबन्धनम् निर्मितम् अस्ति गोर्खा जनपदस्य अजिरकोट ग्रामपालिकायाः भचेक स्थाने ह्य आयोजितायाम् नैर्वाचनिक सभायाम् असौ अवासत जनतायाः महता बलिदानेन निर्मितस्य संविधानस्य लोकतन्त्रस्य विरोधिभिः जनैः संकटे निपातनमनु संविधानस्य पक्षधराः एकत्र संस्थिताः सन्ति नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली निगदति जातीय विभेदस्य अन्तः आरक्षणस्य वैपरीत्येन ज्ञानेन शिल्पेन चैव भवति एमाले दल निकटस्थेन नेपालोत्पीडित जातीय मुक्ति समाजेन ह्यो दमक स्थाने आयोजिते प्रदेश स्तरीय अभिमुखीकरण कार्यक्रमे अध्यक्ष ओली अतर्कयत चिराय प्राप्तोत्पीडनानां जाति समुदायानां कृते केवलं कतिचित् कालाय एव आरक्षणस्य व्यवस्थायां विहितम् विहितायम् सत्यमपि अतपरम् दीर्घकालाय इयम् व्यवस्था नावलम्बनीया असौ अगदत् आरक्षणेन ज्ञान शिल्प क्षमताः निष्क्रियाः विधाय समुदायेऽपि केवलम् कया निश्चित व्यक्त्या एव अवसरः अवाप्स्यते नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा कथयति संविधानस्य रक्षायै लोकतान्त्रिक शासन पद्धतेः विकासाय राजनीतिक परिवर्तनाय च गठबन्धनम् आवश्यकम् वर्तते झापा जनपदस्य प्रथम निर्वाचन क्षेत्रे ह्य आयोजिते कार्यक्रमे महामन्त्री शर्मा अगदत् राष्ट्राय जनतायाः समृद्धये च गठबन्धनम् आवश्यकम् अस्ति झापा जनपदस्य भद्रपुरे ह्यैव आयोजिताम् नैर्वाचनिकीम् सभाम् सम्बोधयन् नेपाली कांग्रेस दलस्य नेता कृष्णप्रसाद सिटौला अब्रवीत् राजतन्त्रम् पुनर्जीवितम् न भवति नेता सिटौला अकथयत् सांविधानिक व्यवस्थायाः अनुसारेण राज्यात् प्राप्त सुविधाभिः व्यक्तिभिः व्यवस्थायाः विरोधो न कर्तव्यः राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानेन निर्वाचनेन देश जनतयोः भविष्यम् निर्मास्यते इति भाषमाणः एतद् गभीरेण मन्तुम् अनुरुणद्धि सिन्धुपाल्चोक जनपदस्य मेलञ्ची स्थाने पूर्वेद्युः आयोजितायम् नैर्वाचनिक सभायाम् अध्यक्ष लिङ्गदेन अवासत आगामी निर्वाचनम् परिवर्तनाय विकासाय चास्तीति हेतोः अवसरस्य रूपेण मन्तव्यम् दलस्य पूर्वाध्यक्ष पशुपतु शमशेर राणा स्वर्णिम देशस्य निर्माणाय आगामी निर्वाचने मतदानम् कर्तुम् अन्वरुणत प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विदेन सह नेपालस्य कृते यूरोपीय संघस्य राजदूतः नोना डेप्रेज ह्य कान्तिपथवर्तिनी आयोगस्य कार्यालय अमिलत मेलनावसरे अनयोर्मध्ये मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेश सभानां च सदस्यानां निर्वाचनस्य द्विपक्षीय सम्बन्धस्य विविध विषयाणां च सम्बन्धे विमृष्टम् आसीत् रेडियो नेपाले आयोजितम् प्रतिनिधिसभायाः प्रदेशसभानाम् च निर्वाचनेन समाचार संग्रहणेन च सम्बद्धम् प्रशिक्षणम् सम्पन्नम् वर्तते सिम्ब प्रसादवर्तिनी रेडियो नेपाले आयोजितम् प्रशिक्षणम् ह्यः समापयन् रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी प्रशिक्षणात् सहभागिभिः संचारकर्मिभिः प्राप्तम् अनुभवम् व्यवहारे क्रियान्वीय शीघ्रम् सारल्येन च तथ्यपूर्ण सामग्रीणाम् प्रसारणाय बलम् दातुम् अन्वरुणत कार्यकारी निर्देशकः केसी कार्य सम्पादनावधौ निष्पक्षताम् अवलम्ब्य आचार संहिताम् पूर्णतः परिपाल्य च कार्यम् सम्पादयितुमपि सहभागिनः संचारकर्मिणः निरदिशत तदवसरे रेडियो नेपालस्य नायब कार्यकारी निर्देशकः चन्द्रभूषण लाल दासश्च विचारम् उदैरयत रेडियो नेपालस्य अपरेण नायब कार्यकारी निर्देशकेन कृष्णचन्द्र पौडेलेन निर्वाचने रेडियो नेपालेन प्रयुक्तव्यस्य प्रविधिर्विषये प्रशिक्षितम् आसीत् आराष्ट्रम डेंगू रोगेण संक्रांतानं जनानं संख्या 155,777 च प्राप्ता वर्तते। दिवसत्रय 14.9% डेंगू रोगस्य नवीनानं संक्रांत जनानं वर्धनम् अनु संक्रांतानं समग्र जनानं संख्या 155,777 च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालय ज्ञापयति। बागमती प्रदेशे डेंगू रोगस्य सर्वाधिक संक्रान्ता जनाः सन्ति। यसां संख्या 49,44,67 च वर्तते। एवमेव त्रिषु दिवसेषु अतिरिक्तस्य जनद्वयस्य मृत्योरनन्तरं डेंगू रोगस्य ह्यस्तनावधि मृतानां जनानां संख्या सप्तपञ्चाशत् प्राप्ता स्थिति मन्त्रालयोऽसौ सूचयति। राष्ट्रपतिना विद्यादेवी भण्डारिणा सह विभिन्न देशानां महिला नेतृभिः मेलवार्ता विहिता वर्तते। राष्ट्रपतिना भण्डारिणा सह आइसल्याण्ड देशस्य प्रधानमन्त्री विश्व महिला नेतृत्व परिषदः अध्यक्षा च क्याट्रिन याकोब्स डोटिरी इह शिष्टाचार मेलनं विहितवती। तदवसरे नेपाल आइसल्याण्ड देशयोः सम्बन्धस्य लैंगिक समानतायाः जलवायु परिवर्तन दिनांच विषयेषु विचारादान प्रदाने विहिते आस्ताम। मेलने आइसल्याण्ड देशस्य प्रधानमन्त्रिणा नेपाले महिला सहभागिताया क्षेत्रे विहिता प्रगति उदाहरणीय स्थिति चर्चयन्त्या महिला नेतृत्वस्य क्षमता विकासस्य जलवायोः अनुकूलनस्य अन्य पारस्परिक हितस्य च विषयं प्राथमिकतायं संस्थाप्य विमृष्टम् आसीत्। सम्मेलनस्य क्रमे राष्ट्रपतिना भण्डारिणा सह आइसल्याण्ड देशात् सगरमाथा होल्से शिखरयोः सफल पर्वतारोही महिलाभिः मेलनं विहितं वर्तते। एवमेव आइसल्याण्ड देशे निवसन्तं नेपाली समुदायं राष्ट्रपतिः भण्डारी समबोधयत् इति च एतदीय संचार विज्ञ टीका ढकालः ज्ञापयति। उपराष्ट्रपतिः नन्दबहादुर पुन नेपाल चीन देशयोः सम्बन्धः आर्थिक कूटनीतेर माध्यमेन अतिरिक्तः विस्तारितः प्रगाढश्च भवति इति विश्वासं व्यनक्ति। ह्यः काष्ठमण्डपे आयोजितं नेपाल चीनोद्योग वाणिज्य संघस्य 26वीं वार्षिक साधारण सभां सम्बोधयन् असौ अगदत् देशद्वयस्य सम्बन्धं सुदृढीकर्तुं नैज क्षेत्रस्य भूमिका अतिरिक्त प्रभावकारिणी विधेया। उपराष्ट्रपतिः पुन पञ्चशीलस्य सिद्धान्ते आदृतः नेपाल चीन देशयोः द्विपक्षीय सम्बन्ध विविध क्षेत्रे विस्तारितो वर्तते इति चर्चेन अगदत् विगत कतिचित् वर्षेभ्य नेपाल चीन देशयोः सम्बन्धं गभीरं विस्तृतं च विधातुं नूतन सहयोगस्य क्षेत्राणि अभिज्ञातानि वर्तन्ते। भक्तपुरवर्तिनः हुतात्म धर्मभक्त राष्ट्रिय प्रत्यारोपण केन्द्रस्य अंग प्रत्यारोपण समाज नेपालस्य च संयुक्ता योजनायां द्वितीयान्तर्राष्ट्रियम् अंग प्रत्यारोपण सम्मेलनं श्व प्रारभमाणं वर्तते। श्व शनिश्चरवासरे काष्ठमण्डपे प्रारभमाणं सम्मेलनमेतत् दिनद्वयं यावत् चलितेति प्रत्यारोपण केन्द्रस्य कार्यकारी निर्देशकः डाक्टर पुकार चन्द श्रेष्ठः ज्ञापयति। अन्तर्राष्ट्रिय अंग प्रत्यारोपण सम्मेलनेऽस्मिन् अमेरिका जापान भारत बंगलादेश स्लोभानिया नेपालानां ख्यातिप्राप्त प्रत्यारोपण विज्ञानां सहभागिता जायमाना स्थिति निर्देशकः डाक्टर श्रेष्ठः अज्ञापयत्। इति समाचारः।